एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते अल्पविकसित राष्ट्राणां कृते त्रिंशदुत्तर द्विसहस्रतम ख्रीष्टवर्षं यावत् सबल विकासस्य लक्ष्यस्य प्राप्तिः समाभयपूर्णा स्थिति हेतोः विकसित राष्ट्रैः स्वकीय प्रतिबद्धतायानुसारेण वित्तीय सहयोगः प्रदातव्यः। संयुक्त राष्ट्रसंघस्य अष्टासप्ततितम्यां महासभायां सहभागितायै न्यूयॉर्क नगरे विद्यमानः प्रधानमन्त्री प्रचण्डः अल्पविकसित राष्ट्राणां समूहस्य सबल विकासस्य लक्ष्य विषयकं सम्मेलनं पूर्वे द्यू सम्बोधयन् अवाचत। कोविड उनविंशतेः महामारी, जलवायु परिवर्तनं, भूराजनीतिक व्यग्रता चेति विभिन्नानां संकटानां प्रभावेण अल्पविकसित राष्ट्राणां कृते सबल विकासस्य लक्ष्यम् अधिगन्तुं समस्या सृष्टा वर्तते। असौ सम्मेलने अल्पविकसित राष्ट्राणां स्तरोन्नयनाय अतिरिक्त योजनायाः आनयनाय प्रस्तावं प्रस्तोत। प्रधानमन्त्री प्रचण्डः प्रावोचत् वित्तीय निवेशनेनैव सबल विकासस्य लक्ष्यं पूरयितुं शक्यते, साफल्यस्य विफलतायाश्च मापनं च एतस्यैव आधारेण भविष्यति। सबल विकासस्य लक्ष्यस्य प्राप्ति नेपालस्यापि उच्चैः प्राथमिकतायाः विषयो वर्तते इति चर्चयन् प्रधानमन्त्री प्रचण्डः नेपालस्य नीति योजनासु सबल विकासस्य लक्ष्यस्य प्राप्तित्वेन लक्ष्योद्देश्यानि निर्धारितानि सन्तीति अब्रवीत्। नेपालेन षड्विंशत्यधिक द्विसहस्रतम ख्रीष्टवर्षं यावत् स्तरोन्नयन क्रमस्य पूर्णत्वेन कार्यं विधीयमानमस्तीति सूचयन् प्रधानमन्त्री प्रचण्ड अल्पविकसित राष्ट्राणि आन्तरस्रोतस परिचालिकानां संस्थानां क्षमतां सबलीकर्तुं क्रियाशीलानि सन्तीति अकथयत। प्रधानमन्त्री प्रचण्ड अगदत् विपन्नताया उन्मूलनाय, असमानताया न्यूनीकरणाय च एतेषां राष्ट्राणां सक्रियता वर्तते। सर्वकारेण त्र्यधिकशतं प्रकरणानि जीवाणु वृद्धि निरोधकानि औषधानि न प्रयोक्तुम् उपभोक्तारः सम्बद्धपक्षाश्च अनुरुद्धाः सन्ति। औषध व्यवस्था विभागस्य महानिर्देशकः नारायण प्रसाद ढकालः जीवाणु वृद्धि निरोधकानाम् औषधानां प्रयोगं न्यूनीकर्तुं प्रयोगं स्वेच्छया न कर्तुं च अन्वरुणत। विश्व स्वास्थ्य संगठनेनापि एतेषाम् औषधानां प्रयोगाय परामृष्टं नास्ति, एतेषाम् औषधानां प्रयोगस्य औचित्यं च नास्तीति असौ अवोचत। महानिर्देशकः ढकालः जीवाणु वृद्धि निरोधकानाम् औषधानां न्यूनीकरणाय तथ्याधिताय उपचार प्रणाल्यै समुचित प्रयोगाय च प्रोत्साहन प्रदायकस्य उद्देश्यस्य प्राप्तये च औषध परामर्शदातृ समितेः परामर्शेन एतेषाम् औषधानां पञ्जीकरणं, नवीकरणं, आयातं, प्रयोगं च न कर्तुं कारयितुं च निर्दिष्टमस्तीति अवोचत। परराष्ट्रमन्त्री एनपी साउथ कथयति विदेशेषु निवसद्भ्यो नेपालीभ्य विभिन्नानां सेवासौविध्यानां प्रदानार्थं दूतावासान् नियोगाञ्च अतिरिक्तं सक्रियान् विधातुं प्रयत्यमानं वर्तते। संयुक्त राष्ट्रसंघस्य अष्टासप्ततितम्यां महासभायां सहभागिताया क्रमे न्यूयॉर्क भ्रमणे विद्यमानः परराष्ट्रमन्त्री साउद अगदत् नेपालेन अधिगतं शान्ति प्रक्रियायाः तार्किक निष्कर्षस्य अनुभवं विश्वस्य पुरतो नेतुं प्रयासः विधीयमानो वर्तते। वर्तिन्या जनसम्पर्क समित्या आयोजिते कार्यक्रमे परराष्ट्रमन्त्री साउद अवोचत् विदेशेषु स्थितानां नेपालीनां स्वदेशं प्रत्यावर्तनस्य वातावरणं निर्मातुं वर्तमान सर्वकारः कार्यं कुर्वाणो वर्तते। विदेशेषु स्थितेभ्यो नेपाली नागरिकेभ्यो मताधिकार प्रदानाय गृहमन्त्रालयेन प्रेषिताय पत्राय आत्मना सैद्धान्तिक सहमतिः प्रदत्तेति भाषमाणः मन्त्री साउद विदेशेषु निवसतां नेपालीनां पारपत्र प्रवेशाज्ञा प्रवृत्ति समस्यानां सम्बोधनाय मन्त्रालयस्य सांगठनिक संरचनायां कतिचित् सुधारस्य उपक्रमः जायमानोऽस्तीति असूचयत्। चिकित्सा शिक्षा सम्बद्ध संघर्ष समितेः पदाधिकारीभिः अनशनं त्रुटितं वर्तते। स्वास्थ्य जनसंख्या मन्त्रिणा मोहन बहादुर बस्नेत इत्यस्य विशेष प्रयत्नेन अष्टात्रिंशता दिवसै माइतीघर मण्डलास्थाने क्रमानुगता अनशने निवसद्भिः संघर्ष समितेः पदाधिकारीभिः अनशनं त्रुटितं वर्तते। मन्त्री बस्नेत संघर्ष समित्या उत्थापितानां याचनानां सम्बोधनाय सर्वकारेण प्रयत्यमानमस्तीति ब्रुवन् चिकित्सा शिक्षाधिनियमं संशोधयितुं प्रतिबद्धतां व्यक्तवान्। चतुर्दश सूत्रीयाः याचनाः प्रस्तुत्य अनशनरतैः संघर्ष समितेः पदाधिकारिणः संघर्षं स्थगयितुं सहमताः सन्ति मन्त्रालयेन सह विताया वार्ताया पश्चात् आत्मभिः उत्थापितानां याचनानां सम्बोधनाय विश्वासस्य वातावरणं निर्मितम् इति संघर्ष समिते सहसंयोजक भुवन चक्र जोशी अवोचत। मन्त्रिणा बस्नेतित्यनेन सम्मिलितायां वार्तायां मन्त्रालयस्य सचिव डाक्टर रोशन पोखरेल, अतिरिक्त सचिव डाक्टर विकास देवकोटा, डाक्टर टंकबारा कोटी च सहभागिन आसन्। एवमेव संघर्ष समिति पक्षतः संयोजक निर्मल सापकोटा, सहसंयोजक जोशी, अन्य पदाधिकारीणश्च सहभागिन अवर्तन्त। श्रम वृत्ति सामाजिक सुरक्षा मन्त्री सरसीमा भण्डारी कथयति वैदेशिक वृत्त्युपार्जनम् अतिरिक्तं व्यवस्थितं विधातुम् आप्रवासन नीतेः संशोधनम् अपेक्षितमस्ति। पोखरा स्थानस्य लामाचौरस्थले ह्य आयोजिते हरितालिकोत्सव कार्यक्रमे मन्त्री भण्डारी वैदेशिक वृत्त्युपार्जनस्य नाम्नि बहवो जनाः प्रवञ्च्यमानाः सन्तीति हेतोः वैदेशिक वृत्त्युपार्जनम् व्यवस्थितं विधातुम् आप्रवासन नीतेः संशोधनम् अपेक्षितम् अस्तीति समस्पष्टयत। मन्त्री भण्डारी वर्तमानावस्थायां वैदेशिक वृत्त्युपार्जनम् नेपालस्य अर्थतन्त्रस्य बलवान् आधारोऽस्तीत्यतः इदम् अतिरिक्तं सुरक्षितं व्यवस्थितं नियमितं च विधातुम् आवश्यकम् अस्तीति उदैरयत। अद्य हिन्दू महिलाः सविधि ऋषि पञ्चमी पर्व समायोजयन्त्यः सन्ति। ऋषि पञ्चमी पर्वणि हिन्दू महिलाः प्रातःकालिकीं नित्यक्रियां समाप्य गंगायां नद्यादौ ह्रदकूप तडाग धारादिषु वा एत्य आचारानुसारेण अपामार्ग खण्डानां षष्टुत्तर त्रिशतेन दन्त धावनं विधाय स्नान्ति। अस्मिन् पर्वणि दीपकलश गणेश पूजन पूर्वकं सारुन्धतिकाः कश्यपादि सप्तर्षयः पूज्यन्ते। अद्य पूजनीयेषु सप्तर्षिषु गौतमः, अत्रि, भरद्वाजः, विश्वामित्रः, कश्यपः, जमदग्निः, वसिष्ठश्च सन्ति। दिवसेऽस्मिन् विभिन्नेषु ऋषिमन्दिरेषु ऋषीणां दर्शन पूजनार्थं महिलाः उपतिष्ठन्ते। लोकोपकारिणां महामनीषिणां ऋषीणां स्मरणं तदीय मार्गमनुसृत्य अग्रे वर्धनं च अस्य पर्वणः महत्वाधायक पक्षो वर्तते। ऋषीणां पूजनानन्तरं नृत्य गायन भजन कीर्तनेषु विहितेषु सत्सु हरितालिकायाः व्रतं पूर्णतामेति सामाजिक मान्यता वर्तते। अद्यैव अग्रपूजायाः प्राप्ताधिकारस्य विघ्नहर्तुः भगवतः गणेशस्य पूजाराधनं विधाय आयोक्ष्यमाणं गणेशचतुर्थी पर्व च वर्तते। प्रतिवर्षं भाद्रमासस्य शुक्लपक्षस्य चतुर्थे दिवसे पर्वेदं समायोज्यते। सत्ययुगे भाद्र शुक्ल चतुर्थ्यां तिथौ भगवतः गणेशस्य जन्माभूत् इति शास्त्रीय मान्यता वर्तते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली ब्रुते राष्ट्रस्य विकासाय विज्ञान प्रविध्योः प्रयोगो विधेय। ललितपुरस्य च्यासलवर्तिनी एमाले दलस्य कार्यालये एमाले दलीयेन विज्ञान प्रविधि विभागेन राष्ट्रिय विज्ञान दिवसस्य अवसरे आयोजितायां नेपाले विज्ञान प्रविध्यो वर्तमानावस्था अस्याः समावयाश्चेति विषयिण्याम् अन्तरक्रियायां ह्य अध्यक्ष ओली विज्ञान प्रविध्यो प्रयोगेण विना राष्ट्रस्य विकासः न सम्भवतीति विचारं व्यक्तवान् इति समाचाराः।